व्यासेन नाम एकेन मुनिना विरचिते महाभारते पञ्चानां पाण्डोः पुत्राणां धार्तराष्ट्रशतेन सह समरः कथ्यते। पाण्डवानां ज्येष्ठः युधिष्ठिर अभिधानः चतुर्भिः भ्रातृभिः सह स्वराज्यं दुर्योधनहितं पुनः जितवान्। कुरुक्षेत्रयुद्धे क्षत्रियाणां बहुसहस्राणि हत्वा पञ्च पाण्डवाः दुर्योधनम् ऊचुः राजन् दुष्टानि शतानि अकरोः। अद्य तु एकः असि, ततः नः राज्यं देहि इति। सः तु भ्रातॄणाम् एकेन सह युद्धं पप्रच्छ। अथ भीमेन प्रतिउक्तम् अहं त्वया सह गदया युच्यामि इति। ततः द्वौ वीरौ चिरं युदुधतुः भीमेन च दुर्योधनः हतः।